ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्रीशुक उवाच। आत्ममायामृते राजन् परस्यानुभवात्मनः न घतेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा। बहुरूपैवा भाति मायया बहुरूपया, रममाणो गुणेश्वस्य ममाहमिति मन्यते। यर्हि वावमहिं निःस्वे परस्मिन् कालमाययोः, रमेत गतसम्मोहश्चक्त्वो दास्ते तदोभयम्। आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम्, ब्रह्मणे दर्शयन् रूपमव्यलीकव्रताद्रितः। साद्देवो जगतां परो गुरुः स्वधिष्ण्यमास्थायसि शिक्षयैक्षत। तां नाध्य गच्छत् दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत्। सचिन्तयन् द्व्यक्षरमेकदाम्भस्युपाशृणोद्विर्गदितं वचो विभुः। स्पर्शेषु यत्सोडशमेकविंशं निष्किञ्चनानां नृपयद्धनं विदुः। निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यतपश्यमानः। स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः। दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितो भयेन्द्रियः। अतप्यतस्माखिल लोकतापनं तपस्तपीयांस्तपतां समाहितः। तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम्। व्यपेत संक्लेश विमोह साध्वसं स्वदृष्टवद्भिर्विबुधैरभिष्टुतम्। प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः। न यत्र माया किमुता परे हरेरनुव्रता यत्र सुरासुरार्चिताः। श्यामावदाता सतपत्रलोचनापि सङ्गवस्त्रा सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेक निष्काभरणा सुवर्चसः। प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः। भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्। विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः। श्रीर्यत्र रूपिण्युरुगाय पादयोः करोति मानं बहुधा विभूतिभिः। प्रेङ्खं श्रिताया कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायति। ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिं सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यै परिसेवितं विभुम्। भृत्यप्रसादाभिमुखं त्रिकासवं प्रसन्नहासारुणलोचनाननं किरीटिनं कुण्डलिनं चतुर्भुजं पीताम्बरं वक्षसि लक्षितं श्रिया। अध्यर्हणीयासनमाश्रितं परं वृतं चतुष्षोडश पञ्चशक्तिभिः। युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्वयेव धामन् रममाणमीश्वरम्। तद्दर्शनाल्लादपरिप्लुतान्तरो रिष्यत्तनुः प्रेमभराश्रुलोचनः। न नाम पादाम्बुजमस्य विश्वसृग् यत्पारमहंस्येन पथाधिगम्यते। तं प्रीयमाणं समुपस्थितं तदा प्रजाविसर्गे निजशासनार्हणम्। बभाषयीषत्स्मितशोचिसा गिरा प्रियः प्रियं प्रीतमनाकरे स्पृशन्। श्रीभगवानुवाच। त्वयाहं तोषितः सम्यग् वेदगर्भसि शिक्षया, चिरं भृतेन तपसा दुस्तोषः कूटयोगिनां। वरं वरय भद्रं ते वरेशं माभिवाञ्छितं। ब्रह्मन् श्रेय परिश्रामः पुंसो मद्दर्शनावधिः। मनीषितानुभावोऽयं मम लोकावलोकनं। यदुपश्रुत्य रहसि चकर्थ परमं तपः। प्रत्यादिष्टं मया तत्र त्वयि कर्म विमोहिते। तपो मे हृदयं साक्षादात्माहं तपसो नघ। सृजामि तपसैवेदं ग्रसामि तपसा पुनः। बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः। ब्रह्मोवाच। भगवन् सर्वभूतानाम् अध्यक्षो वस्थितो गुहां, वेदय्य प्रतिरुद्धेन प्रज्ञानेन च कीर्षितं। तथापि नाथमानस्य नाथनाथय नाथितं। परावरे यथा रूपे जानीयां ते त्वरूपिणः। यथात्ममाया योगेन नानाशक्त्युपब्रह्मितं। विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना। क्रीडस्य मोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते। तथा तद्विषयां देहि मनीषां मयि माधव। भगवच्छिक्षितमहं करवाणि यतन्द्रितः। नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्। यावत् सखा सख्युरिवेशते कृतः प्रजाविसर्गे विभजामि भोजनम्। अविक्लवस्ते परिकर्मणि स्थितो मामे समुन्नद्धमदोजमानिनः। श्रीभगवानुवाच। ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितं, सरहस्यं तदङ्गं च गृहाणगदितं मया। यावानहं यथाभावो यद्रूपगुणकर्मकः, तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्। अहमेवासमेवाग्रे नान्यत् यत् सदसत्परम्। पश्चादहं यदेतच्च यो वशिष्येत सोऽस्म्यहम्। ऋतेर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि तद्विद्यादात्मनो मायां यथा भासो यथा तमः यथा महान्ति भूतानि भूतेषु चावचेष्वनु प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा एतन्मतं समातिष्ठ परमेण समाधिना भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्। श्रीशुक उवाच सम्प्रदिश्यैव मजनो जनानां परमेष्ठिनम् पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् प्रजापतिर्धर्मपतिरेकदा नियमान्यमान् भद्रं प्रजानामन्विच्छन्नातिष्ठत् स्वार्थकाम्यया तं नारदप्रियतमो रिक्थादानामनुव्रतः शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च मायां विविदिशन् विष्णोर्मायेशस्य महामुनिः महाभागवतो राजन् पितरं पर्यतोषयत् तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति तस्मा इदं भागवतं पुराणं दशलक्षणं प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् नारदप्राह मुनये सरस्वत्यास्तते नृप ध्यायते ब्रह्म परमं व्यासायामित तेजसे यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदं यथासि तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे नवमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।